अथ चतुर्दशोऽध्यायः।
श्रीभगवानुवाच, परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्, यज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः। इदं ज्ञानमुपाश्रित्य मम साध्यर्ममागताः, सर्गेऽपि नोपजायन्ते प्रलयेन व्यथन्ति च। मम योनिर्महद्ब्रह्म तस्मिन् गर्भम् ददाम्यहम्, सम्भवः सर्वभूतानाम् ततो भवति भारत। सर्वयोनेषु कौन्तेय मूर्तयः सम्भवन्ति याः, तासाम् ब्रह्म महद्योनिरहम् बीजप्रदः पिता। सत्वम् रजस्तम इति गुणः प्रकृतिसम्भवाः, निबध्नन्ति महाबाहो देहे देहिनमव्ययम्। तत्र सत्वम् निर्मलत्वात् प्रकाशकमनामयम्, सुखसङ्घेन बध्नाति ज्ञानसङ्घेन चानघ। रजो रागात्मकम् विद्धि तृष्णासङ्गसमुद्भवम्, तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्। तमस्त्वज्ञानजम् विद्धि मोहनम् सर्वदेहिनाम्, प्रमादलस्य निद्राभिर्तन्निबध्नाति भारत। सत्त्वम् सुखे सञ्जयति रजः कर्मणि भारत, ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत। रजस्तमश्चभिभूय सत्त्वम् भवति भारत, रजः सत्त्वम् तमश्चैव तमः सत्त्वम् रजस्तथा। सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते, ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वमित्युत। लोभः प्रवृत्तिरारम्भः कर्मणाम् शमः स्पृहा, रजस्येतानि जायन्ते विवृद्धे भरतर्षभ। अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च, तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन। यदा सत्त्वे प्रवृद्धे तु प्रलयम् याति देहवृत्, तदो उत्तमविदाम् लोकान् अमलान् प्रतिपद्यते। रजसि प्रलयम् गत्वा कर्मसङ्गेषु जायते, तथा प्रलिनास्ति तमसि मूढयोनेषु जायते। कर्मणः सुकृतः स्याहो सात्विकम् निर्मलम् फलम्, रजसस्तु फलम् दुःखम् अज्ञानम् तमसः फलम्। सत्त्वात् सञ्जायते ज्ञानम्, रजसो लोभ एव च, प्रमादमोहतमसो भवतो ज्ञानमेव च। ऊर्ध्वम् गच्छन्ति सत्त्वस्था, मध्ये तिष्ठन्ति राजसाः, जगन्यागुणवृत्तिष्ठा अधो गच्छन्ति तामसाः। नान्यम् गुणेभ्यकर्तारम् यदा दृष्ट्वानुपश्यति, गुणेभ्यश्च परम् वेति मद्भावम् सोऽधिगच्छति। गुणानेतानतित्यत्रिन् देही देहसमुद्भवान्, जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते। अर्जुन उवाच, कैर्लिङ्गे स्त्रीन् गुणानेतान् अतीतो भवति प्रभो, किमाचारकथम् चैत्तान् त्रिन्गुणानतिवर्तते। श्रीभगवानुवाच, प्रकाशम् च प्रवृत्तिम् च मोहमेव च पाण्डव, न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति। उदासीनवदासीनो गुणेर्यो न विचाल्यते, गुणा वर्तन्ते इत्येवम् यो वतिष्ठति नेङ्गते। समदुःख सुख स्वस्थ समलोष्ट्राश्मकाञ्चनः, तुल्या प्रिया प्रियो धीरस् ತುಲ್ಯ ನಿಂದಾತ್ಮ ಸಂಸ್ತುತಿ ಮಾನಾಪಮಾನಯೋಸ್ತುಲ್ಯ ಸ್ತುಲ್ಯೋ ಮಿತ್ರಾರಿ ಪಕ್ಷಯೋ ಸರ್ವಾರಂಭ ಪರಿತ್ಯಾಗಿ ಗುಣಾತೀತ ಸ ಉಚ್ಯತೆ ಮಾಂ ಚ ಯೋ ವ್ಯಭಿಚಾರೇಣ ಭಕ್ತಿಯೋಗೇನ ಸೇವತೆ ಸಗುಣಾನ್ ಸಮಿತಿತ್ಯೈತಾನ್ ಬ್ರಹ್ಮಭೂಯಾಯ ಕಲ್ಪತೆ ಬ್ರಹ್ಮಣೋ ಹಿ ಪ್ರತಿಷ್ಠಾಹಂ ಅಮೃತಸ್ಯಾವಯಸ್ಯ ಚ ಶಾಶ್ವತಸ್ಯ ಚ ಧರ್ಮಸ್ಯ ಸುಖಸ್ಯೈಕಾಂತಿಕಸ್ಯ ಚ